संस्कृत रीडिंग नंबर 9 सुकन्या कथा पेजेस 407 एंड 8। पुरा भारत देशे गंगा नद्यास्तीरे खंडवन नाम महद वनम आसीत। तस्मिन् वने केचिन मुनयो गोपाला अविपालाश्चावसन। ते मुनय ईश्वरमेव चिंतयितुम् इच्छन्तो ग्राम नगराणि परित्यज्य वनमागत्य तपः पूजां यज्ञांश्चान्वतिष्ठन्। तस्मिन् वने न केवलं मुनयोऽपितु पशवोऽपि बभूवुः, किन्तु ते पशवो मुनीनां प्रभावेण शान्तिभावमागता न परस्परमहिंसन्। सिंहा व्याघ्राः शृगालाश्च धेनुभिर्मृगैश्च सह तस्मिन् वने सुखेनावसन्। तत्रैव कस्यचिद् वृक्षस्याधस्थितश्च वनो नाम मुनिर् वर्षसहस्रं यावत् तीव्रं तपश्चकार। स सर्वेषां मुनीनां पितामह इवाभूत्। दीर्घं कालं यावत् सच्च वनो मुनिरेकस्मात् स्थानादन्यत्र न जगाम। सोन्नमपि नाभक्षयत् जलमपि च नापिबत्। स वर्षशतं यावद् वृक्ष इवातिष्ठत्। नैष नरो नेत्रमपि विचालयतीति यदा सर्पा विहगाश्चाबोधंस् तदा ते भीतिं परित्यज्य तस्य समीपमागत्यावसन्। केचित् सर्पाश्च्यवनस्य केशेषु निजं गृहञ्चक्रुः। अथैकदा शर्यातो नाम कश्चिद् राजा पुत्रैः कन्याभिर्भार्याभिश्चम्वाच सह ग्रामान्तरं गच्छंस् तस्मिन् वने कानिचिद् दिनान्यवसत्। तत्र वसतस्तस्य नृपस्य पुत्रा वने खेलन्तस्तञ्च्यवनं मुनिमद्राक्षुः। सर्पैर्वेष्टितन्निश्चलन्तं वृद्धन्नरं समीक्ष्य ते मूर्खा राजपुत्राश्चिन्तयामासुः। कोऽयञ्जीर्णो नरोऽत्र मृत इव वृक्षस्याधः सीदति? मृतो वा जीवति वेति कथं बोधाम इति। एवं चिन्तयित्वा ते बालाः किञ्चित् काष्ठमादाय च्यवनस्य ऋषेर्नेत्रे अभिन्दंस्तञ्च हसन्तो लोष्टैरतुदन्। यदा ते बाला स्तं ऋषिमुपाहसंस् तदा सो कुप्यत्। कुपितः स मुनिः शर्यातं शशाप। सर्वे शर्यातजना असंज्ञा भवन्त्विति। च्यवनस्य शापेन सर्वे शर्यातजना असंज्ञा बभूवुः। पुत्रा मातृर्लोष्टैरतुदन् मातरो दुहितृरताडयन् सर्वे जना इतस्ततो भ्रमन्तो धावन्तश्च निजानि वस्त्राणि परित्यज्य वृक्षानारुह्य कपय इव बभ्रमुः। शर्यातश्च तत्सर्वमवलोक्य सम्भ्रान्तः कुतः समुत्पन्नापदेशेति चिन्तयामास। बहु चिन्तयन्नपि स एतस्य आपदः कारणन्नाबोधत्। तदा स शर्यातो गोपालांश्चाविपालांश्च समाहूयाब्रवीत्। अपि यूयमेतस्य आपदः कारणं बोधथेति? त ऊचुः, हे राजन्, तव पुत्रा एतं मृतमिव तिष्ठन्तं महामुनिमुपहसन्तो लोष्टैस्तमतुदंस्तस्य च नेत्रे काष्ठैरभिन्दन्। एतेनापकारेण कुपितः स महामुनिस्त्वामशपत्। एतत्कारणं तव जनानामसंज्ञाया इति। तद्गोपालानामविपालानाञ्च वचनं श्रुत्वा स राजा तस्य मुनेः क्रोधमपनेतुमुपायं चिन्तयामास। कुपितं च्यवनं मुनिमुपगम्य शर्यात उवाच, हे मुने, त्वामजानद्भिर्मम पुत्रैर्महानपकारः कृतः। तं क्षन्तुमर्हति भवानिति। तमपकारमपनेतुं मम जनानां संज्ञाप्रतिलाभाय च यत् तवेष्टं तदहं करिष्यामि तवेच्छां कथयेति। तच्छ्रुत्वा स मुनिरुवाच, हे नृप, महान् अपराधस्त्वया कृतः, मम क्रोधमपनेतुं मह्यं तव सुकन्यां नाम कन्यां प्रयच्छ, अन्यथा तव जनानां संज्ञा प्रतिलाभो न कदापि भविष्यतीति। एतस्मातिवृद्धाय मुनये स्वीया तरुणी कन्या सुकन्या प्रदेयेति चिन्तयित्वा स शर्यातो दुःखितो बभूव। सुकन्यां प्रति गत्वा स उवाच, प्रियकन्ये सुकन्ये, अस्माकं जनानां संज्ञा प्रतिलाभायैक एवोपायो नान्यः कश्चित्। यदि त्वमेतस्यातिवृद्धस्य महामुनेश्च्यवनस्य भार्या भवेस् तर्ह्येवास्माकं जनानां संज्ञा प्रतिलाभो भविष्यतीति। पितुस्तामगतिकां वाचं श्रुत्वा निजकुलरक्षणाय सा सुकन्या ब्रवीत्, हे तात, अलञ्चिन्तय, भवत्वेष वृद्धमुनिर्मे पतिरिति। पितृकुलरक्षणाय निजसुखमपि परित्यजन्ती सा सुकन्या वृद्धमुनेश्च्यवनस्य भार्या बभूव। पतिव्रता च सा तरुणी भार्या सुखहीनापि निजं वृद्धपतिं भक्त्या सेवमाना न कदापि परपुरुषमचिन्तयत्। अथैकदा स्वर्गलोकादश्विनौ भूमावागतौ, अश्विनौ देवानां भिषजौ, तौ चातिसुन्दरौ बभूवतुः। वने विचरद्भ्यां ताभ्यां सुन्दरी सुकन्या वृद्धपतिं सेवमाना दृष्ट्वा, तान् दृष्ट्वा तयोर्मनसि कामो बभूव। तौ तां सुकन्यामभाषेताम्, हे सुकन्ये, परित्यज्यैतं वृद्धपति मावां प्रति आगच्छ, यथा त्वं कामसुखं लप्स्यस इति। तच्छ्रुत्वा सा ब्रवीत्, नाहमधर्ममाचरिष्यामि, यस्मै मां पिता यच्छत् तं मे पतिं जीवन्तं न त्यक्ष्यामि, गच्छतं युवामन्यत्रेति। एवं भाषित्वा सा सुकन्या च्यवनं प्रति गत्वा सर्वं वृत्तान्तं न्यवेदयत्। च्यवनो ब्रवीत्, साधु साधु सुकन्ये, धन्यासि, यदि तावश्विनौ पुनरागत्य तदेव वदेताम् तर्हि त्वं तौ प्रति एवं भाषस्व, अज्ञौ युवामधर्मचारिणौ नरकं गमिष्यथः, यदि युवां मम पतिं पुनर्युवानं करिष्यथस्तर्हि स युवाभ्यां धर्ममुपदेक्ष्यतीति। तावश्विनौ पुनरागत्य सुकन्यां प्रति तदेवाभाषेताम्, सा च तौ प्रति पत्युर्वचनमभाषत्। धर्मज्ञानमिच्छन्तावश्विनौ देवभिषजौ सुकन्यामवदताम्, सुकन्ये, अस्मात् स्थानान्नातिदूरन् चिरयौवनो नाम दिव्यो हृदः, यदि तव पतिस्तस्मिन् हृदेव गाहेत तर्हि स युवा भविष्यतीति। अनन्तरं च्यवनस्तस्मिन् हृदेव गाह्य युवा बभूव। पतिव्रतया सुकन्यया सह युवा च्यवनश्चिरकालं रेमे। तौ दृष्ट्वा जना एवमभाषन्त, धन्या खल्वेषा सुकन्या, या पतिव्रता भूत्वा धर्मबलेन पतिं युवानञ्चकार, अहो बलं धर्मस्येति।